एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। समाजवादी संयुतेः ह्या उपविष्टेन प्रथमोपवेशेन संयुतेः नीति कार्यक्रमान् आचार संहिताश्च निर्मातुम् चतुःसदस्यीयम् कार्यदलम् संगठितम् वर्तते। कार्यदले नेकपा माओवादी केन्द्रस्य देवगुरूङ, जनता समाजवादी दलस्य राजेन्द्र श्रेष्ठः, एकीकृत समाजवादी दलस्य प्रमेश हमालः, नेपाल कम्युनिष्ट पार्टीजी दलस्य खड्गबहादुर विश्वकर्मा च सदस्याः सन्ति। एकीकृत समाजवादी दलस्य नेता राजेन्द्र पाण्डे अज्ञापयत्। नेकपा एकीकृत समाजवादिनः आलोकनगर स्थिते केन्द्रीय कार्यालये ह्या उपविष्टेन उपवेशेन संयुतेः अध्यक्षताम् प्रतिषण्मासम् संयुतौ सहभागिभिर् दलैः सक्रिय प्रणाल्या विधातुम् निर्णीतमिति नेता पाण्डे संचारकर्मिणः अज्ञापयत्। संयुतेः अन्य विषयाः आगामिना उपवेशेन निर्णेष्यन्ते इति सूचयन् नेता पाण्डे अवदत्। तदवधिम् यावत् नेकपा एकीकृत समाजवादिनः अध्यक्षेण माधव नेपालेनैव संयुतेः अध्यक्षताम् कर्तुम् सहमतिर्धृता वर्तते। एवमेव उपवेशेन सप्तानामेव प्रदेशानाम् राजधानीषु कार्यक्रमान् आयोजयितुम् निर्णीतमिति सूचयन् नेता पाण्डे अगदत्। एतेषाम् दिनांकाः विस्तृत कार्यक्रमाश्च अस्यैवा आषाढस्य सप्तविंशे दिवसे उपवेक्ष्यमाणेन संयुतेः अपरोपवेशेन निर्धारयिष्यन्ते। उपवेशे प्रधानमन्त्री, नेकपा माओवादी केन्द्रस्य अध्यक्षश्च पुष्पकमल दाहाल प्रचण्ड, नेकपा एकीकृत समाजवादी दलस्य अध्यक्षः माधव कुमार नेपालः, जनता समाजवादी दलस्य अध्यक्षः उपेन्द्र यादवः, नेपाल कम्युनिष्ट पार्टीति दलस्य अध्यक्षः नेत्रविक्रम चन्द्र विप्लवश्चेति नेतारः सहभागिनः आसन्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड कथयति, इलाम जनपदे इलाम स्वास्थ्य विज्ञान प्रतिष्ठानस्य स्थापनायै सर्वकारेण तत्कालं प्रयासः विधीयते। बाल्वाटारावर्तिनी प्रधानमन्त्री निवासे ह्य एकीकृत समाजवादी दलस्य सम्मानित नेत्रा जलनाथ खनालेन सहितेन समूहेन सह मेलवार्तायाः क्रमे प्रधानमन्त्री प्रचण्ड चिकित्सा महाविद्यालयस्य स्थापनायै आवश्यक प्रयत्नम् विधीयते इति अवोचत। इलाम स्वास्थ्य विज्ञान प्रतिष्ठानस्य सञ्चालनस्य विषये प्रधानमन्त्री अनुकूलो वर्तते, तत्कालम् आवश्यक प्रक्रियायाः अग्रिवर्धनाय वचनञ्च प्रदत्तमिति एकीकृत समाजवादी दलस्य सम्मानित नेतुः खनालस्य सहयोगी कृष्ण भट्टराई अज्ञापयत्। समूहे नेकपा माओवादी केन्द्रस्य केन्द्रीय सदस्य धीरेन शर्मा, इलाम नगरपालिकायाः प्रमुख केदार थापा, कर्णाली स्वास्थ्य विज्ञान प्रतिष्ठानस्य पूर्वोपकुलपतिः प्राध्यापकः डाक्टर राजेन्द्र राजवाग्ले चेत्यादयो जनाः सहभागिनः आसन्। चक्रवृद्धि धनेन पीडितैः जनैः आराष्टम् अधुनावधि आसन्न चतुर्विंशति सहस्राणि आवेदनानि प्रदत्तानि सन्ति। सर्वकारेण पूर्व न्यायाधीशस्य गौरीबहादुर कार्गिणः अध्यक्षतायां संघटितस्य अनुचितादान प्रदान चक्रवृद्धि धन सम्बद्धस्य अनुसन्धानायोगस्य अनुसारेण प्रस्तुतानां निवेदनानां मध्ये शुक्रवासरं यावत् 185,300 च निवेदनेषु मेलः वीतो वर्तते। इतः पूर्वं सर्वकारेण जनपद प्रशासन कार्यालयान माध्यमेन निवेदन प्रस्तुत्यै व्यवस्था विहिता आसीत्। आयोगस्य सदस्यस्य पूर्व प्रहरी अतिरिक्त महानिरीक्षकस्य उत्तमराज सुवेदिनः अनुसारेण समाहितानां निवेदनानां मध्ये प्रतिशतं 30% न्यायालयेन निर्णीतानि न्यायिक प्रकरणानि च सन्ति। स्वास्थ्य जनसंख्या मन्त्री मोहन बहादुर बस्नेत कथयति, स्वस्य पदीय मर्यादाम् संस्थाप्य दायित्वे निर्व्यूढे सति सम्बद्ध क्षेत्रस्य देशस्य च विकासो भविष्यति। ह्य काष्ठमण्डपे आयोजिते त्रिप्रसूति रोग विशेषज्ञेन गीतकारेण च डाक्टर भोलारिजालेन लिखितस्य सेतो कोट शीर्षकीय पुस्तकस्य लोकार्पण कार्यक्रमे मन्त्री बस्नेत आत्मना परिधृतस्य परिधानस्य मर्यादाम् औचित्येन पालयितुम् अन्वरुणत। संविधानेन सुनिश्चिताभ्याम् स्वास्थ्यात् शिक्षायाश्च कोऽपि नागरिको वञ्चितो न भवतु इति विचारम् प्रकटयन् मन्त्री बस्नेत उपचार सेवायाः सहजतायै, सारल्याय, सुलभतायै च अनलाइन प्रणाल्याः माध्यमेन उपचार प्रपत्र ग्राहीका व्यवस्था विधीयमाना स्थिति अज्ञापयत। पुस्तकस्य लेखकः डाक्टर रिजालः सेतोकोट इत्याख्यं पुस्तकं चिकित्सकानां कर्म धर्म मर्मबोधकस्य एकस्य सरलस्य परम गहनस्य पुस्तकस्य रूपेण प्रस्तुतमिति समसूचयत। ह्य एव विजयन नेपाल नाम्न्याः सेवामूलक सर्वकारेतर संस्थायाः नवम वर्ष प्रवेशस्य उपलक्ष्ये काष्ठमण्डपे आयोजिते कार्यक्रमे स्वास्थ्य जनसंख्या मन्त्री बस्नेत देशस्य विपुलतमे सर्वकारीय वीर चिकित्सालये आगामिनः श्रावण मासस्य प्रथम दिवसात् वैरंगोपचार सेवा प्रातः अष्टवादनात् प्रारब्धेति अवदत। मन्त्री बस्नेत आगामिनः सप्ताहद्वयस्य अभ्यन्तरे राष्ट्रस्य सर्वेषां संघीय चिकित्सालयानां शय्याश्च निःशुल्काः विधास्यन्ते इति अज्ञापयत। चिकित्सा महाविद्यालयस्य संचालनाय स्वीकृति ग्रहणावसरे प्रतिशतं दशभिः शय्याः निःशुल्काः विधातव्याः इत्युल्लिख्य संविदा विहिता यस्याः क्रियान्वयनाय कठोरता अवलम्बितेति च चर्चयन् मन्त्री बस्नेत अतर्कयत। अनया व्यवस्थया शस्त्रस्य संख्यायं लक्षित समुदायाय उपचारार्थं लाभः प्राप्तो वर्तते। अर्थमन्त्री डाक्टर प्रकाश शरण महत भाषते सर्वकारेण अन्तरोत्पादनस्य प्रवर्धनस्य नीति अवलम्बिता वर्तते। भोजन व्यवस्थापन संचालनागार व्यवसायी संघेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे अर्थमन्त्री महत वर्तमानां व्यापार हानिं न्यूनीकर्तुं सर्वकारेण अन्तरोत्पादन प्रवर्धनस्य नीति अवलम्बितेति अवोचत। अर्थमन्त्री महत सर्वकारेण अन्तरोत्पादन प्रवर्धनस्य नीति अवलम्बितेति हेतो आन्तरवस्तूनां उपभोगाय साधारण जनान् अनुरुणत। अर्थमन्त्री मत कृषि अनुदानस्य दुरूपयोगं रोद्धुं सर्वकारेण आगामिनः आर्थिक वर्षस्य आयव्ययके उत्पादनस्य आधारेण अनुदान प्रदानाय व्यवस्था विहितेति च अस्मारयत। अर्थमन्त्री डाक्टर महत कोषागार वित्तीय संस्थाभिः शीघ्रं वृद्धिधनस्य प्रतिशतं न्यूनीकरिष्यते इति असूचयत। अर्थमन्त्री महत अधिक वृद्धिधनस्य अनुपातस्य न्यूनीकरणाय आत्मना नेपाल राष्ट्रकोषाय उक्तमस्ति आगामिनः आर्थिक वर्षस्य मौद्रिक नीतिः विषयममुं सम्बोध्य आनेष्यते इति विश्वसितवान्। नेकपा एमाले दलस्य महासचिव शंकर पोखरेल गदति एमाले दलेन सत्तायै प्राथमिकता न प्रदत्तास्ति। नेकपा एमाले दलस्य रामेछाप काष्ठमण्डप सम्पर्क मञ्चेन ह्य काष्ठमण्डपे आयोजिते अभिमुखीकरण कार्यक्रमे महासचिव पोखरेल दुर्बलानां सहकार्येण राष्ट्रनिर्माणं न सम्भवति इति हेतो सम्प्रति एमाले दलेन सत्तायी प्राथमिकता न प्रदत्तेति स्पष्टीकृतवान्। महासचिव पोखरेल बलवती राजनीतिक शक्ति एकीकृत्य राष्ट्रस्य निर्माणं सम्भवति इति निष्कर्षेण कार्याय नेकपा एमाले दलं प्रवर्तितम् इति चर्चयन् अस्यैव अभियानस्य अन्तर्गतम् एमाले दलं जनस्तर प्राप्त्यभियाने लग्नं वर्तते इति असूचयत। राष्ट्रिय स्वतन्त्र दलस्य सभापति रवि लामी छाने स्वस्य दलेन जनतायाः विषयाः प्राथमिकतायां स्थापिताः सन्तीति स्पष्टीकरोति। सभापति लामी छाने राष्ट्रपादलं सर्वकारेऽपि जनतायाः विषयान् प्राथमिकतायां संस्थाप्य गतमासीत् इति न्यश्चिनोत्। राष्ट्रपादलस्य लुम्बिनी प्रदेश समितेः आयोजनायां ह्य भैरवः स्थाने आयोजितं प्रदेशस्तरीयं दिनद्वयात्मकं प्रशिक्षण कार्यक्रमं सम्बोधयन् सभापति लामी छाने जन्मसिद्ध नागरिकाणां सन्तत्यै नागरिकता प्रदातव्येति विषय राष्ट्रपादलेन कदापि नोक्तम् विरोधस्य विषया के सन्ति त्यत्र राष्ट्रपादलम् स्पष्टमस्ति इति च अगदत् इति समाचाराः।